काव्य प्रकाशीय कारिका नाम स्वरूपम प्रथम उल्लास प्रथम कारिका नियति कृत नियम रहताम लादायक मयीम धन्य परतंत्राम नवरस रुचिराम निर्मिति मा दधति भारती कवे जयति काव्यम यशसे अर्थ कृते व्यवहार विदेक्षवेतर क्षतये सद्यः परनिर्वृत्तये कांता सम्मित तयोपदेश युजे कारिका शक्ति निपुणता लोक शास्त्र काव्यादवेक्षणात् काव्यज्ञ शिक्षयाभ्यास इति हेतु समुद्भवे कारिका तद दोषौ शब्दार्थौ सगुणावनलंकृति पुनः क्वापि कारिका इदमुत्तम मतिशायिनी व्यंग्ये वाच्याद् निर्बुधय कथितः कारिका अतादृशी गुणीभूत व्यंग्यम व्यंग्ये तु मध्यमम् शब्द चित्रम वाच्य चित्रम व्यंग्यम तत्वरम स्मृतम द्वितीय उल्लास कारिका स्यादवाचको लाक्षणिकः शब्दोत्र व्यंजक त्रिधा वाच्यादय सदर्थास्यु तात्पयोर्थोपि केषुचित् कारिका सर्वेषां प्रायशो अर्थानां व्यंजकत्वम् पिष्यते साक्षात् संकेतितं यो अर्थं विधत्ते स वाचकः संकेतिस चतुर्भेदो जात्यादिर जातिरेव वा स मुख्योऽर्थस्तत्र मुख्यो व्यापारो चाभिधोच्यते मुख्यार्थ बाधे तद्योगे रूढितो अर्थ प्रयोजनात् अन्यो अर्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया कारिका स्वसिद्धय पराक्षेपः परार्थे स्वसमर्पणम् उपादानं लक्षणे लक्षण चेत्युक्ता सुद्धैव साद्विधा कारिका सारोपान्या तु यत्रोक्तौ विषयी विषयस्तथा विषयन्त कृते न्यस्मिन् सा स्यात् साध्यवसानिका कारिका भेदाविमौ च सादृश्यात् सम्बन्धान्तर तस्तथा गौणौ शुद्धौ च विज्ञेयौ लक्षणातेन षड्विधा कारिका व्यंगेन रहिता रूढौ सहिता तु प्रयोजने तच्च गूढम गूढम वा तदेषा कथिता त्रिधा तद्भूर्लाक्षणिक तत्र व्यापारो व्यंजनात्मकः कारिका यस्य प्रतीतिमा धातुम् लक्षणा समुपास्यते फले शब्दैक गम्येत्र व्यंजना ना परा क्रिया नाभिधा समया भावादहेत्व भावान्न लक्षणा कारिका लक्ष्यम न मुख्यम नाप्यत्र बाधो योगः फलेन नो न प्रयोजनमेतत् तस्मिन् न च शब्दः फलद्गतिः कारिका एवमप्यनवस्था स्यादया मूल क्षतिकारणी प्रयोजनेन सहितं लक्षणीयं न युज्यते कारिका ज्ञानस्य विषयो हान्य फलमन्यदुदाहृतम् विशिष्टे लक्षणानैवं विशेषा स्युस्तु लक्षिते कारिका अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते संयोगाद्यैर्वाच्यार्थधिकृत व्यापृत्तिरञ्जनम् कारिका तद्युक्तो व्यञ्जकः शब्दो यतसो अर्थान्तर्युक्त तथा अर्थोऽपि व्यञ्जकस्तत्र सहकारितया मतः तृतीय उल्लास कारिका अर्थः प्रोक्ताः पुरा तेषाम् अर्थव्यञ्जकतोच्यते वक्त्रीवाद्यकाकूनां वाक्यवाच्यान्यसन्निधेः कारिका प्रस्तावदेशकालादेवैशिष्ट्यात् प्रतिभाजुषाम् यो अर्थस्यान्यार्थधिहेतुर्व्यापारो व्यक्तिरेव सा कारिका शब्दप्रमाणवेद्यो अर्थो व्यनक्ते अर्थान्तरम् यतः अर्थस्य व्यञ्जकत्वे तच्छब्दस्य सहकारिता चतुर्थ उल्लास अधिवक्षित व्याच्यो यस्तत्र वाच्यं भवेद्ध्वनौ अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृतम् कारिका विवक्षितं चान्यपरं वाच्य यत्रापरस्तु सः कोऽप्य लक्ष्यक्रम व्यंग्यो लक्ष्य व्यंग्यक्रमः परः कारिका रसभाव तदाभासभाव शान्त्यादिरक्रमः भिन्नो रसाद्यलङ्कारितया स्थितः कारणान्यथ कार्याणि सहकारणीयानि च रत्यादेः स्थायिनो लोके तानि चेन्नाश्च काव्ययोः कारिका विभावा अनुभावा तत्पथ्यन्ते व्यभिचारिणः व्यक्तः स तैर्वी भावा देह स्थायी भावो रसः स्मृतः। कारिका श्रृंगार हास्य करुण रौद्र वीर भयानकाः विभक्त साद्भुत संज्ञौ चैत्यष्टौ नाट्ये रसाः स्मृताः। कारिका रतिर्हासश्च शोकश्च क्रोधोत्साहो भयं तथा जुगुप्सा विस्मरश्चेति स्थायी भावा प्रकीर्तिताः। कारिका निर्वेद ग्लानी शंकाख्यास तथा सूया मद श्रमाः आलस्य चैव दैन्यस्य चिंता मोह स्मृतिर्घृतिः। कारिका व्रीडा चपलता हर्ष आवेगो जडता तथा गर्वो विषाद असुख्यम निद्रा पस्मार एव च। कारिका सुप्तम विबोधो अमर्ष चाप्य हित्थम अथोग्रता मतिर्व्याधिरस्तथो मादस्तथा मरणमेव च। कारिका त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः त्रयस्त्रिंशदमी भावाः समाख्या तास्तु नामतः। कारिका निर्वेदस्थायी भावोऽस्ति शान्तोऽपि नवमो रसः रतिर्देवादि विषया व्यभिचारी तथा जितः। कारिका भावः प्रोक्त सदा भाषा अनौचित्र प्रवर्तिताः भावस्य शान्ति हृदयः सन्धि सबलता तथा। कारिका मुख्ये रसे पितेऽङ्गित्वं प्राप्नुवन्ति कदाचन अनुस्वानाभ संलक्ष्य क्रम व्यंग्य स्थितिस्तु यः। कारिका शब्दार्थो भय शक्त्युत्थ स्त्रिधा स कथितो ध्वनिः अलंकारोत वरत्वेव शब्दाद्यत्राव भासते। कारिका प्रधानत्वेन स गेयः शब्द शक्त्युद्भवो द्विधा अर्थ शक्त्युद्भवो अप्यर्थो व्यंजकः संभवी स्वतः। कारिका प्रौढोक्ति मात्रात् सिद्धो वा कविस्तेनोभितस्य वा वस्तु वालङ्कृतिर्वेति षड् भेदोऽसौ व्यनक्ति यत्। कारिका वस्तु अलङ्कारमथवा तेनायम् द्वादशात्मकः शब्दार्थो भयभूरेको भेदा अष्टादशास्य तत्। कारिका रसादिनामनन्तत्वाद् भेद एको हि गण्यते वक्ये द्युयत्थ पदे अप्यन्ये प्रबन्धे प्यर्थ शक्तिभुः। कारिका पदैकदेश रचना वर्णेष्वपि रसादयः भेदास्तदेक पञ्चाशत् तेषाम् चान्योन्य योजने। कारिका संकरेण त्रिरूपेण संसृष्ट्या चैकरूपया वेद खाब्धि व्यचन्द्राः शरेषु युग खेन्दवः। पञ्चम उल्लास कारिका कारिका अगूढ़ परस्यांगम वाच्य सिद्ध्यंगम स्फुटम संदिग्ध तुल्य प्रधान्य काक्वा क्षिप्तम सुंदरम। कारिका व्यंग्यमेवं गुणीभूत व्यंग्यस्याष्टौ भिदाः स्मृताः एषां भेदा यथा योग्यं वेदितव्याश्च पूर्ववत्। कारिका सालंकार ध्वनय स्तस्य योगः संसृष्टि संकरः अन्योन्य योगादेवं स्या भेद संख्याति भूयसि। षष्ठ उल्लास कारिका शब्दार्थ चित्रम यत् पूर्वं काव्य द्वयम् उदाहृतम् गुण प्राधान्य तत्र स्थिति शब्दार्थ चित्रयोः। सप्तम उल्लास कारिका मुख्यार्थ हतिर्दोषो रसस्य मुख्य सदाशया वाच्यः उभयोपयोगिनः स्यु शब्दाद्यास्तेन तेष्वपि सह। कारिका दुष्टं पदं श्रुति कटुच्युत संस्कृत्य प्रयुक्तं समर्थम् निहतार्थम् अनुचितार्थम् निरर्थकम् वाचकम् त्रिधाश्लीलम्। कारिका संदिग्धम् प्रतीतम् ग्राम्यम् नेयार्थमत भवेत क्लिष्टम् अविमृष्ट विधेयांशम् विरुद्धमतिकृत समास गतमेव। कारिका अपास्यच्युत संस्कारम् समर्थम् निरर्थकम् वाक्येऽपि दोषाः सन्त्येते पदस्यांशेऽपि केचन। कारिका प्रतिकूल वर्णमुपहत लुप्त विसर्गम विसंधिहत वृत्तम न्यूनाधिक कथित पदम पतत प्रकर्षम समाप्त पुनरात्तमम। कारिका अर्धांतर एकवाचकम भवन मतयोगम अभिहित वाच्यम अपदस्थ पद समासम संकीर्णम गर्वितम प्रसिद्धि द्युतम। कारिका भग्र प्रक्रम मक्रम मत परार्थम च वाक्यमेव तथा अर्थो पुष्टः कष्टो व्याहत पुनरुक्त दुष्कम ग्राम्याः संदिग्धो निर्हेतु प्रसिद्धि विद्या विरुद्धश्च। कारिका अनवीकृतः सनीयमानीयम् विशेषा विशेष परिवृत्ताः। कारिका साकांक्षो पदयुक्तः सहचर भिन्नः प्रकाशित विरुद्धः विन्ध्यनुवादा युक्तस्त्वक्त पुनः स्वीकृतो अश्लीलः। कारिका कर्णावतंसादिपदे कर्णादिध्वनि निर्मितिः सन्निधानादिबोधार्थं स्थितेष्वेतत् समर्थनम्। कारिका ख्याते अर्थे निर्हेतोर्दुष्टत्व मनुकरणे तु सर्वेषाम् वक्ता द्यौचित्यवशादोषोऽपि गुणः क्वचिन्नोभौ। कारिका व्यभिचारी रस स्थायी भावानां शब्दवाच्यता कष्ट कल्पनया व्यक्तिरनुभाव विभावयोः। कारिका प्रतिकूल विभावादिग्रहो दीप्तिः पुनः पुनः अकाण्डे प्रथम छेदावङ्गस्याप्य प्रतिविस्तृतिः। कारिका अङ्गिनो अनुसन्धानं प्रक्तानां विपर्ययः अनङ्गस्याभिधानं च रसे दोषाः स्यूरीदृशाः। कारिका न दोषः स्वपदेनोक्तावपि सञ्चारिणः क्वचित् सञ्चार्यादेविरुद्धस्य बाध्यस्योक्तिर्गुणावः। कारिका आशयैक्ये विरुद्धो यः सहकार्यो भिन्न संश्रयः रसान्तरेणान्तरितो नैरन्तर्येण यो रसः। कारिका स्मर्यमाणो विरुद्धोऽपि साम्येनाथ विवक्षितः अङ्गिन्यम् गत्वमाप्तौ यौ तौ न दुष्टौ परस्परम्। अष्टम् उल्लासः। कारिका ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः उत्कर्ष हेतवस्ते स्यूरचलस्थितयो गुणाः। कारिका उपकुर्वन्ति तम् सन्तम् यो अङ्गद्वारेण जातुचित् हरादिवदलङ्कारस्ते नुप्रासोपमादयः। कारिका माधुर्योजः प्रसादाख्याश्रयस्ते न पुनर्दश आह्लादकत्वम् माधुर्यम् शृङ्गारे द्रुतिकारणम्। कारिका करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम् दीप्त्यात्म विस्तृतेर्हेतुराजा वीररस स्थितिः। विभत्स रौद्ररसयोस्तस्याधिक्यम् क्रमेण च शुकेन्धनाग्निवत् स्वच्छ जलवत् सहसैव यः। कारिका व्याप्नोत्यन्यत् प्रसादोऽसौ सर्वत्र विहितस्थितिः। गुणवृत्त्या पुनस्तेषाम् वृत्तिः शब्दार्थयोर्मता। कारिका केचिदन्तर्भवन्त्येषु दोषत्यागात् परेषिताः अन्ये भजन्ति दोषत्वम् कुत्रचिन्न ततो दश। कारिका तेन नार्थगुणावाच्याः प्रोक्ताः शब्दगुणाश्च ये वर्णाः समासो रचना तेषाम् व्यञ्जकतामिताः। कारिका मूर्धन्यवर्गान्त्यगाः स्पर्शा अटवर्गा रणौ लघु अवृत्तिर्मध्यवृत्तिर्वा मधुर्ये घटना तथा। कारिका योग आद्य तृतीयाभ्यामन्त्ययोरेण तुल्ययोः तादिः शसौ वृत्तिर्दैध्यम् गुम्फ उद्धत ओजसि। कारिका श्रुतिमात्रेण शब्दात्तु येनार्थ प्रत्ययो भवेत् साधारण समग्राणाम् सप्रसादो गुणोमतः। वक्तृवाच्य प्रबन्धनामौचित्येन क्वचित् क्वचित् रचनावृत्ति वर्णानामन्यथा त्वमपिष्यते। नवम् उल्लास। कारिका यदुक्तमन्यथा वाक्यमन्यथा नेन योज्यते श्लेषेण काक्वा वा गेया सा वा क्रोक्तिस्तथा द्विधा। कारिका वर्णसाम्यम् नुप्रास क्षेक वृत्तिगतो द्विधा सो अनेकस्य सकृत पूर्व एकस्याप्यसकृतपरः। कारिका माधुर्यव्यञ्जकैर्वर्णैरुपनागरिकोच्यते ओजः प्रकाशकस्तस्तु परुषा कोमला परः। कारिका केशांचित देता वैदर्भी प्रमुखा रीतयो मता शाब्दस्तु लाटानुप्रासो भेदे तात्पर्य मात्रतः कारिका पदानाम सह पदस्यापि वृत्तावन्यत्र तत्र वा नामनः स वृत्त्य वृत्त्योश्च तदेवं पञ्चधा मतः कारिका अर्थे सत्यर्थ भिन्नानां वर्णानां सा पुनः श्रुति यमकं पाद तद्भाव वृत्ति तद यातनेकताम् कारिका वाच्य भेदेन भिन्ना यद युगपद भाषण स्पृशः श्लिष्यन्ति शब्दाः श्लेषो सावक्षरा दीभिरश्चधा कारिका भेदाभावात् प्रकृत्या देर भेदोऽपि नवमो भवेत् तच्चित्रं यत्र वर्णानां खड्गा व्याकृति हेतुता कारिका पुनरुक्त वदाभासो विभिन्नाकार शब्दगा एकार्थतेव शब्दस्य तथा शब्दार्थयोरयम् दशम उल्लासः कारिका साधर्म उपमा भेदे पूर्णा लुप्ता च साग्रिमा श्रोत्यार्थी च भवेद वाक्ये समासे तद्धिते तथा कारिका तद्वद् धर्मस्य लोपे स्यान्न श्रोति तद्धिते पुनः उपमानानुपपादाने वाक्यगा अथ समासगा कारिका वादिर्लोपे समासे सा कर्माधार क्यचिक्यङ्गी कर्मकर्तृड् मूल्ये तद्द्विलोपे क्युप् समासगा कारिका धर्मोपमानयोर्लोपे वृत्तौ वाक्ये च दृश्यते क्यचिवाद्युपमेयासे त्रिलोपे च समासगा कारिका उपमानोपमेयत्वे एवासैवैकवाक्यगे अनन्वयो विपर्यास उपमेयोपमातयोः सम्भावनमथोत्प्रेक्षा प्रकृतस्य समेनयत् ससन्देहस्तु भेदवतो तदनुक्तौ च संशयः तद्रूपकम् भेदो यः उपमानोपमेययो समस्तवस्तु विषयम् श्रौता आरोपिता यदा कारिका श्रौता अर्थाशये यस्मिन् कदेश विवर्तितत् सांगमेतद् निरंगम तु शुद्धम माला तु पूर्ववत् कारिका नियतारोपणोपाय स्यादारोपः परस्ययः तत्परम्परितम् श्लिष्टे वाचके भेदभाजिवा कारिका प्रकृतम् यन्निषिध्यान्यत् साध्यते सा स्वप्नुतिः श्लेषः स वाक्य एकस्मिन् यत्रानेकार्थता भवेत् कारिका परोक्तिर्भेदकः श्लेष्टः समासोक्तिर् निदर्शनम् अभवन् वस्तु सम्बन्ध उपमा परिकल्पकः कारिका स्व स्व हेत्वन्वयस्योक्तिः क्रियैव च सा परा अप्रस्तुत प्रशंसा सा या सा सैव प्रस्तुताश्रया कारिका कार्ये निमित्ते सामान्ये विशेषे प्रस्तुते सति तदन्यस्य वचस्तुल्ये तुल्यस्येति च पञ्चधा कारिका निगिर्याध्यव स्थानम् तु प्रकृतस्य परेणयत् प्रस्तुतस्य यदन्यत्वम् यद्यथोक्तौ च कल्पनम् कार्यकारणयोर्यस्य पौर्वापर्यविपर्ययः विज्ञेयातिशयोक्तिः सा प्रतिवस्तुपमा तु सा सामान्यस्य द्विरेकस्य यत्र वाक्यद्वये स्थितिः दृष्टान्तः पुनरेतेषाम् सर्वेषाम् प्रतिबिम्बिनम् कारिका सकृद् वृत्तिस्तस्तु धर्मस्य प्रकृता प्रकृतात्मनाम् सैव क्रियासु वह्निषु कारकस्येति दीपकम् कारिका मालादीपक माध्यम चेद् यथोत्तर गुणावहम् नियतानाम् सकृद् धर्मसा पुनस्तुल्ययोगिता कारिका उपमानाद् यदन्यस्य व्यतिरेकः स एव सः हेत्वरुक्तावनुक्तीनाम् त्रये साम्ये निवेदिते कारिका शब्दार्थाभ्याम् अथाक्षिप्ते श्लेषे तद्वत् त्रिरष्ट तत् निषेधो वक्तुमिष्ठस्य यो विशेषाभिधिप्सया कारिका वक्ष्यमाणोक्त विषयः स आक्षेपो द्विविधा मतः क्रियायाः प्रतिषेधोऽपि फलव्यक्तिर्विभावना कारिका विशेषोक्तिर्खण्डेषु कारणेषु फलावचः यथासङ्ख्याम् क्रमेणैव क्रमिकाणाम् समन्वयः कारिका सामान्यं वा विशेषो वा तदन्येन समर्थ्यते यस्तु सो अर्थान्तर्न्यास साधर्म्येणेतरेण वा कारिका विरोधः सो विरोधेऽपि विरुद्धत्वेन यद्वचः जातिश्चतुर्भिर्जात्याद्यैर्विरुद्धा स्यादगुणस्त्रिभिः कारिका क्रियाद्वाभ्यामपि द्रव्यम् द्रव्येणैवेति तेदश स्वभावोक्तिषु डिम्बादे स्वक्रियारूपवर्णनम् कारिका व्याजस्तु तिर्मुखे निन्दा स्तुतिर्वा रूढिरन्यथा सा सहोक्ति सहार्थस्य बलादेकम् द्विवाचकम् कारिका विनोक्तिः सा विनान्येन यत्रान्यः सन्ननेतरः परिवृत्तिर्विनिमयो यो अर्थानाम् स्यात् समासमः कारिका प्रत्यक्षा एव यद्भावाः क्रियन्ते भूतभाविनः तद्भाविकम् काव्यलिङ्गम् हेतुर्वाक्यपदार्थता कारिका पर्यायोक्तम् विना वाच्यवाचकत्वेन यद्वचः उदात्तम् वसुनः सम्पद महताम् चोपलक्षणम् कारिका तत्सिद्धि हेतावेकस्मिन् यत्रान्यत् तत्करम् भवेत् समुच्चयो असौ सत्वन्यो युगपद या गुणक्रियाः कारिका एकम् क्रमेणानेकस्मिन् पर्यायो न्यस्ततो अन्यथा अनुमानम् तदुक्तम् यत् साध्यसाधनयोर्वचः कारिका विशेषणैर्यत् सा कूतैरुक्तिः परिकरस्तु सः व्याजोक्तिश्छद्मनोद्धि न वस्तुरूपनिगूहनम् कारिका किञ्चित् पृष्टम् पृष्टम् वा कथितम् यत् प्रकल्पते तादृगण्य व्यपोहाय परिसङ्ख्या तु सा स्मृता कारिका यथोत्तरम् चेत् पूर्वस्य पूर्वस्यार्थस्य हेतुता तदा कारणमाला स्यात् क्रियया तु परम्परम् परस्परम् कारिका वस्तुनोर्जनने अन्योन्य उत्तरश्रुतिमात्रतः प्रश्नस्योन्नयनम् यत्र क्रियते तत्र वा सति कारिका असत्कृते यद् सम्भाव्यमुत्तरम् स्यादुत्तरम् कुतोऽपि लक्षितः सूक्ष्मोऽप्यर्थोऽन्यस्मै प्रकाश्यते कारिका धर्मेण केनचिद् यत् यत्र तत् सूक्ष्मम् परिचक्षते उत्तरोत्तरमुत्कर्षो भवेत् सारः परावधि कारिका भिन्नदेशतया अत्यन्तम् कार्यकारणभूतयोः युगपद्धर्मयोर्यत्र ख्यातिः सा स्याद् सङ्गतिः कारिका समाधिः सूकरम् कार्यम् कारणान्तर्योगतः समम् योग्यतया योगो यदि सम्भावितः क्वचित् कारिका क्वचिद्यदति वैधर्म्यापन्यश्लेषो घटनामियात् कर्तुक्रियाफलावाप्तिर्नेवानर्थस्य यद्भवेत् कारिका गुणक्रियाभ्याम् कार्यस्य कारणस्य गुणक्रिये क्रमेण च विरुद्धे यत् स एष विषमो मतः कारिका महतोर्यन्महीया सा वांस्रिताश्रययोः क्रमात् आश्रयाश्रयिणो स्याताम् तनु त्वेप्यधिकम् तु तत् कारिका प्रतिपक्षमसक्तेन प्रतिकर्तुम् तिरस्क्रिया या तदीयस्य तदस्तुत्यै प्रत्यनिकम् तदुच्यते कारिका समेन लक्ष्मणा वस्तुवस्तुना यन्निगुह्यते निजेनागन्तुना वापि तन्मिलितमिति स्मृतम् कारिका स्थाप्यते पोह्यते वापि यथा पूर्वम् परम्परम् विशेषणतया यत्र वस्तु सैकावली द्विधा कारिका यथानुभवमर्थस्य दृष्टे तत् सदृशे स्मृतिः स्मरणम् भ्रान्तिमानन्यसंवित् तत्तुल्यदर्शने कारिका आक्षेप उपमानस्य प्रतीपमुपमेयता तस्यैव यदि वा कल्प्या तिरस्कारनिबन्धनम् कारिका प्रस्तुतस्य यदन्येन गुणसाम्य विवक्षया एकात्मभ्यम् बध्यते योगात् तत् सामान्यामिति स्मृतम् कारिका विना प्रसिद्धमाधारमाधेय व्यवस्थितिः एकात्मा युगपद वृत्तिरेकस्यानेक गोचरा कारिका अन्यत् प्रकुर्वतः कार्यम् शक्यस्यान्यवस्तुनः तथैव करणम् चेति विशेष त्रिविध स्मृतः कारिका समुत्सृज्य गुणम् योगाद्युज्ज्वल गुणस्य यत् वस्तु तद्गुणतामेति भण्यते स तु तद्गुणः कारिका तद्रूपाननुहारश्चेदस्य तत् स्याद् गुणः यदि यथा साधितम् केनाप्यपरेण तदन्यथा कारिका तथैव यद्विधीयेत् स व्याघात इति स्मृतः सैषा संसृष्टिरेतेषाम् भेदेन यदीह स्थितिः अविश्रांति जुषामात्मन मन्यं यागित्वं तु शंकरः एकस्य च ग्रहे न्याय दोषा भावाद् निश्चयः स्फुटमेकत्र विषये शब्दार्थालंकृति द्वयम् कारिका व्यवस्थितं च तेनासौ त्रिरूपः परिकीर्तितः कारिका एषां दोषा यथा योग्यं संभवन्तोऽपि केचन उक्तेषु अन्तर्भवन्तीति न पृथक् प्रतिपादिताः काव्य प्रकाशः प्रथम उल्लासः ग्रन्थारम्भे विघ्न विधाताय समुचिताम् इष्टदेवताम् ग्रन्थकृत परामृशति मुखश्चतुर्भिस्तुवते विधात्रे स्तोत्रे श्रुतिनाश्च चतुष्टयाय भुजश्चतुर्भिश्चतुरोऽर्थ वर्गान् नमो ददानाय चतुर्भुजाय दुर्व्याख्या जनित प्रमोह शमनी वैषम्य विध्वंसिनी वैशद्यात तिरोचनी रसखनी काव्यार्गलोद्घाटिनी टीका विज्ञ जन प्रमोद जननी भावार्थ चिंतामणि भट्टाचार्य महेश्वरेण रचिता काव्य प्रकाशोपरि काव्य प्रकाशाख्य विशुद्ध कांचने वैषम्य दोषार्पित कालिकांचने अम्लाय मानापि ममास्तु टीका माधुर्य धुर्यैक सुधा घटिका दोषो विचार सुलभो यदि दुष्यताम तद्दूये न तत्र शृणुतैकमिदन्तु धीराः ग्रन्थान्यथार्थम् इति संस्कृत मानसद्वाद् व्याख्या मम प्रथमेव न दूषणीया सुकुमारान राजकुमारान स्वादु काव्य प्रवृत्ति द्वारा गहने शास्त्रांतरे प्रवर्तयितुम् अग्निपुराणादिभ्य उद्धत्य काव्यरसा स्वाद कारणम् अलंकार शास्त्रम् कारिकाभिः संक्षिप्य भरतमुनि प्रणीतवान् तदुक्तम् स्वादु काव्यरसोन्मिश्रम् शास्त्रम् प्युपभुज्यते प्रथमालीढ़ मधवः पिबन्ति कटु भेषजम् इति मम्मट भट्टस्तु ताः कारिकाः सोदाहरणम् व्याख्यातुम् कारिका ग्रन्थादिभूताम् नियति कृते त्यादिकारिका मुत्थापयति ग्रन्थारम्भ इत्यादि ग्रन्थो महावाक्य विशेष स च महाराजानाम् ग्रन्थत्वे व्यवहार मात्र परिचेयः न च विभिन्न दोष गुणालंकार बोधकानाम् विभिन्न वाक्या नामेक वाक्यत्वाभावात् कथम् कारिका समुच्चय रूपस्यास्य ग्रन्थस्य महावाक्यत्वमिति वाच्यम् तद् दोषौ शब्दार्थ इत्यादि वक्ष्यमाण काव्य लक्षण वाक्यो स्थापिता कांक्षयेव समस्त दोष गुणालंकार बोधक कारिकाणा मुत्थापनात् तदा कांक्षा पूरण रूपैक प्रयोजनत्वेन समस्त वाक्यना मेक वाक्यत्वात् तदुक्तम् अथैक्यादेकं वाक्यं साकांक्षं चेद् विभागे स्यात् इति तत्र च अर्थैक्यादित्यस्य प्रयोजनैक्यादित्यर्थ परमानन्द चक्रवर्ती तु ग्रन्थ लक्षण मन्य देवाः यथापेक्षा वत प्रवृत्तये विधीयमानस सम्बन्ध प्रयोजनकः संदर्भो ग्रंथ इति तन्न अस्तित्तरस्यां दिशित्यादि कुमार संभवा का काव्यादि रूप ग्रंथेषु संबंध प्रयोजनयोर एकस्याप्यन विधानाद्य व्याप्तेः तद्योग्यतायाश्च ग्रंथत्वं विना अन्यस्य दुर्वचनत्वात् सुखबोधार्थं मुखस्य लक्षणवाक्यस्य व्याख्या मया कियन्त इत्युक्ति पूर्व के तल्लक्षण व्याख्याने ग्रंथरूपे अतिव्याप्त्या पत्तेश्च तस्य प्रक्ति कारिका ग्रन्थस्य आरम्भे आद्य प्रक्ति प्राक्काल रूपेऽधिकरणे समुचिताम् इष्टदेवताम् भारतीम् ग्रन्थकृत कारिका कृत परामृशतीत्यन्वयः यदि चारम्भ पदस्याद्य कृतावेव शक्या तद् क्वालङ्परत्वे लक्षणापत्या सन्तोषस्तदा आरम्भे भाविनीति पूर्णा दन्वयः अनुमान इत्यत्र निरूपणीय इति पूरणवत् तदा च सति सप्तम्ये वेयम् आद्य प्रयत्न भाविनी सतीत्यर्थ चक्रवर्ती तु निमित्त सप्तम्ये वेयम् आरम्भ निमित्तम् परामृशतीत्यर्थ इत्याह तन्न निमित्तस्येष्ट देवता परामर्शस्य फले आरम्भे प्रदर्शिते विघ्न विधात रूप फलांतर प्रदर्शने चकार एव तदा निर्दिष्ट स्यात् तन्निर्देशाश्च तत्र तात्पर्याभाव निर्णयात् आरंभ सामान्य व्यभिचाराद कारणस्य तत्परामर्श स्थारंभ विशेषे कारणता प्रदर्शनस्य प्रवृत्त्यनुपयोगित्वेन तत्प्रदर्शनान्युपयोगाच्च परामृशतीति क्लिक्ष्णरूपेण शाब्दबोध विषयी करोतीत्यर्थः ज्ञानार्थकस्य परापूर्वमृषद्धातोस्तदात्पर्यवशादि दृग् ज्ञानविशेषपरत्वात् न्यायशास्त्रे व्याप्यवत्ता ज्ञानपरत्वत् तथा च क्लिक्ष्णरूपेण तद्विषयक शब्दप्रयोग एवात्र स्तुतिरूपं मंगलं तत्फलमाह विघ्न विधाता येति यद्यपि निर्विघ्न समाप्यतामिति शिष्टानां कामना दर्शनानि निर्विघ्न समाप्तिरेव मंगलफलं सिद्धमुचितं तथापि मंगलं विनापि प्रमत्तानुष्ठित समाप्ति दर्शनाद्वय विचारेण निर्विघ्न विशेषणांश एवासौ कामना अहम् सुखी स्थामित्यत्र सुखरूप विशेषणांश इवेत्यतो विघ्न विधातांश एव मंगलफलम् समाप्तिस्तु स्वकारणादेवेत्यन्यत्र विस्तरः चक्रवर्ती तु व्याप्यवत्ता ज्ञानरूपो नैयायिक व्यवह्रियमाण परामर्श एवात्र परापूर्वम् ऋषधातोरर्थ तथा च उत्कर्ष व्याप्य निर्मित्याधानस्य श्लोकार्थत्वेन तद्वत्तया जानातीत्यर्थ इत्याह तत्र श्लोके जय व्याप्यताया अपदर्शितत्वान् निमित्ति मादधति जयतीति वाक्येन निर्मित्याधानवत्याम् जयस्य विधेय तया प्रतीत्या आधानवत्या जानातीति भवद्व्याख्याने आधानस्य विधेयत्वो तेर्व्याख्यान व्याख्येययोर्वि संवादाच्च अन्ये तु नमस्यता व्याप्योत्कर्षवत्तया परामृशतीत्यर्थ जयतीत्यनेन नमस्यताव्याप्योत्कर्षबोधनात् अत एव जयत्यर्थेन च नमस्कार आक्षिप्यते इति वृत्तौ नमस्यता रूप नमस्कारानुमानम् दर्शयिष्यत् इत्याहु तत्र उत्कर्षार्थकस्य जिघातोर् नमस्यता व्याप्यार्थकत्वाभावेन बाधितस्य तादृशार्थस्य व्याख्यानानौचित्यात् नमस्कार आक्षिप्यत् इत्यस्य नु नमस्कारो व्यज्यत् इत्येवार्थ नमस्कार पदस्य नमस्यता परत्वे लक्षणापत्तेशानुपादेय एव तादृशो अर्थ वागात्मकस्य ग्रन्थस्यारम्भे वाग्देवताया इवेष्टफलार्थ परामर्ष्टुम् औचित्यादाह समुचितेति शीघ्रे फल दातृत्वमेव समुचितत्वम् तादृश्या अपि वैरी देवतात्वे तत्फलादानादाह इष्टेति ग्रन्थकृच्चात्र कारिकाकृद भरतमुनिरेव तदीय संहिताया मासाम् कारिकाणाम् दर्शनात् न तु वृत्तिकृदेव कारिकाकृत परामृशतीत्यादिषु सर्वत्र नामयोगोचि प्रथम पुरुष निर्हेश स्वरसात् अन्यथास्मद् योगोचितोत्तम पुरुष एव निर्हिष्येत किञ्च समस्त वस्तु विषयम् श्रौता आरोपिता यदा इति वक्ष्यमाण समस्त वस्तु विषय रूप लक्षणे आरोपिता इत्यारोपित पदेन रूप्यरूपको भयत्राकथनाद् बहुवचनानुपपत्या अत्र बहुवचनम् विवक्षितमिति यद् वृत्तिकृता लिखिष्यते तावतापि वृत्तिकृतः कारिकाकृद्भिन्नत्वम् वसीयते स्वीयकारिकात्वे श्रौतावारोपितौ यदेत्येव क्रियेत मुनिकारिकात्वेनैव बहुवचनाविवक्षाकथनात् यत्तु त्रिलोपे च समासगेत्यन्ताभिकारिकाभिरूपमा ग्रन्थे समापिते अनयेनेव राजश्रीदयनेनेव मनस्विता ममलौ सा च विषादेन पद्मिनी हिमाम्भसा इत्येवम् मालोपमा तु न लक्षितेति वृत्ता वेवोक्ते माला तु पूर्व्यवदिति रूपक ग्रन्थे मालोपमा तुल्यतया माला रूपकम् सूत्र एवोक्तम् सूत्र कृद्धित्री कृतोर्भेदे तदनुपपन्नमित्याहु तत्रापि नानुपपत्ति त्रिलोपे च समास गेत्यत्र चकारस्यानुक्तमालोपमा समुच्चय परत्वेन सूत्र एव मालोपमाया उक्तत्वेन तत्तुल्यतया मालारूपकथे अनुपपत्तय भावात् माला तु न लक्षितेत्यस्य तु विशिष्टेन लक्षिता चकारेण तु लक्षितैवेत्यभिप्रायः नियति कृत नियम रहिताम लादयक मई मन्यन न्यपर तंत्राम नवरस रुचिराम निर्मिति मादधति भारती कवे जयति परामर्श नियम नियति शक्तिया नियत रूपा सुख दुख मोह भावा परमाण्वाद्यु पादान कर्मादि सहकारी कारण परतंत्रा षडसान च यद्यैव तैहि तादृशी ब्राह्मणो निर्मित निर्माणम एतद् विलक्षणा तु कवि वांग निर्मिति अत एव जयति जयत्यर्थेन च नमस्कार आक्षिप्यत इति ताम प्रत्यस्मि प्रणत इति लभ्यते परामर्श नियम अर्थमाह नियति इति तथा च इत्थं परामृशति इति बोध्यम श्लोकार्थस्तु भारती वागधिष्ठात्री देवता जयति उत्कृष्टा यतो नियति कृतेत्यादि विशेषण वैशिष्ट्येन ब्रह्म निर्मितितो विलक्षणाम कवेह काव्यरूपाम निर्मितिम आदधति जनयन्ति भारती प्रसादादेव कविना काव्यकरणात् भारत्या अपि काव्यकर्तित्वात् ब्रह्म निर्मिति वैलक्षण्यमेवाह नियति कृतेति नियतिः अदृष्टं तत्कृतः तन्निरूपं नियमः जन्यता रूपः तद्रहिताम् अदृष्टा जन्यामित्यर्थ शब्दार्थो भयात्मनः काव्यस्थालिक मुखाद्यात्मक कमलाद्यार अंशे अष्टाजनत्वात् शब्दांशेतु तज्जन्यत्वमस्त्येवेति बोध्यम् न चैवमर्थांशो भारत्या अप्यजन्य एवेति कथं तदाधानात्तस्था उत्कर्ष इति वाच्यं वस्तुतो अनाधानेपि तज्जन्य शब्देनोपनिबन्ध सैव तदाधानत्वेनोपचारात् तावतैवोत्कर्षत्वाच्च यद्वा नियमत इति नियति संसारस्तत्र कृतो नियमः जल एव पद्म नांगानायामित्येव रूपस्तद्रहिताम् कवे निमित्त वंगनायामपि मुखाद्यात्मकमला द्युपलम्भात् चक्रवर्ती तु नियतिर् दृष्टं तत्कृतो नियमः नियम विशेषः चन्द्र एव चन्द्रपदप्रयोगाद् ह्लादकत्वाद्वगम इत्येवं रूपः तद्रहितामित्यर्थ कविर्निमित्तौ मुखेऽपि चन्द्रपदप्रयोगे ह्लादकत्वागमादित्याह तत्र कविर्निर्मितावपि चन्द्रे चन्द्रपदप्रयोगा ह्लादकत्वावगमात् तद्राहित्याभावात् अयचन्द्र एवेति नियमः कवि निर्मितौ नास्तीति चेत् तत् किं चन्द्रे चन्द्रपदप्रयोगाद् ह्लादकत्वानावगम इत्येव नियमः स च ब्रह्मनिर्मिता व्यवहारित न कविनिर्मितावित्यर्थ तर्हि तस्यानव गमस्यात्यन्ताभावरूपत्वेन तत्र नियति कृत्वं बाधित्वे इति यदि च अवन्द्रवृत्त्यभावप्रतियोग्या ह्लादकत्वावगम एव नियमपदार्थस्तदावपि नियतिकृतत्वविशेषणं तत्र व्यर्थमेव जन्यभावमात्रस्यैव नियतिकृतत्वेनाव्यावर्ताकर्त्वात् किंच ब्रह्म निर्मिताव चंद्रे लक्षणया चंद्रपद प्रयोग आलादकत्व कप प्रयोज नावगमः तत्रेत्यत्तादृशनियम तत्रापि नास्तेव लादैकेति लादः सुखं स एव एकः केवलः दुःखा संभिन्नो यतस्तन्मयी तत्स्वरूपाम स्वार्थे मयट अनन्येति अन्यत् स्वामिन्नं स्वीय समवाप्यादि कारणं तद परतन्त्रां तद नदीनाम परतंत्र पदस्य पराधीनार्थकत्वेपि पदांतरोत्तरवर्तित्वे धीन मात्रार्थकत्वात् एतदप्यलिकार्थांश्च मात्रे बोध्यं न तु जन्ये शब्दांशे यद्यप्येतावतैव नियतित्यादेरपि गतार्थता तथापि गोवृषन्यायात् पृथुकु पादानां समवायादि कारणानधीनान् नियत्यधीनाञ्च ध्वंसत्तोऽपि वैलक्षण्यलाभार्थं चक्रवर्ती तु सांख्यमते कार्यकारणयोर्भेदेन प्रतिभा अन्यात् काव्यादनन्या प्रतिभा तत्परतन्त्रामिति व्याचष्टे तन्न अनन्येत्यन्य पदार्थ एव नैयार्थन्वे परमाण्वा द्विपादान परतंत्र ब्रह्म निर्मितस्तद् विलक्षणातु कवि वांग निर्मितिरिति वृत्ति विरोधापत्ते तत्र परतंत्र पदार्थ एव नयर्थान्वयभानात् नवरसेति नवसंख्या रसा श्रृंगारादयो यत्रेति बहुव्रीहि ततश्च साचासौ रुचिरा चेति कर्मधारय तेन नवरसत्वं रुचिरत्वं चेति द्वयमत्र विधेयं तेन विशेषण द्वयेनैव ब्रह्म निर्मितितो वैलक्षण्यं बोध्यं रसपदस्य श्रेष्ठत्वेन ब्रह्म निर्मितेर् मधुरादि षड् रसत्वादु रुचिरमात्रत्वाभावाच्च अत एव नवरसे रुचिरार्मिति न तत्पुरुषस्तदा नवरसत्वस्य विधेयत्वाप्रतीतेः नवमी रसे रुचिरामित्येवं तत्पुरुषे त्रिपद गणङ्गीकारोऽपि दोषः दर्शित बहुव्रीहौ तु वपुर्विरूपाक्षमित्यत्राक्षणोर्वैरूप्यमिव पूर्वपदार्थो नवत्वं विधेयतैव प्रतीयते व्यक्तिं विष्यति चाग्रे वृत्तौ बहुव्रीहिरेव कविनिर्मितौ ब्रह्मनिर्मितौ विलक्षण्यं व्याख्यातुमादौ नियतिकृतेत्यादि विशेषणैराक्षिप्तानि ब्रह्मनिर्मितविशेषणानि वृत्तिकृदर्शयति नियतिशक्तेति नियतरूपा ब्राह्मणो निर्मितरित्यग्रेणान्वयः एवमुत्तरत्रापि नियतेरदृष्टस्य शक्त्या कारणतारूपसामर्थ्येन नियतरूपा तज्जन्यरूपेत्यर्थः कविनिर्मिति स्वर्थांसे तद्जन्येति वैलक्षण्यम् सुख दुखेत इदं मोहांतं च तज्जनक परम मुखादि जनक स्वभावेत्यर्थ परमाण्वादीति उपादान कारणं समवायी कारणं सर्वत्र कारण पदार्थान्वयः कर्म कुंभकारादि क्रिया रस पदस्य श्लिष्टत्वादाह षड् रसेति मधुरादि षट् वतित्यर्थः अनेन नवरसेत्यर्थः बहुव्रीहि व्यक्तिकृतः तथा च रसाधिक्यादपि कवि निर्मितौ वैलक्षण्यं दर्शितं वैलक्षण्यान्तरमपि दर्शयति न चेति ब्रह्म निर्मिति रसैर्न हृद्येति वक्तुमशक्यं मधुराद्रैर्हद्यत्वादतो रुचिरामित्यत्र रुचिरमात्रामित्यर्थमभिप्रेत्य ब्रह्मनिर्मितौ तन्मात्रत्वाभावमेव दर्शयति न चेति तैरसहि तिक्तादीनां हृद्यत्वादित्यर्थः हेत्वाकांक्षासत्वादेव तैरित्याक्षिप्य दर्शितं न तु नवरसरुचिरामित्यत्र तत्पुरुषलब्धत्वादिमुक्तमिति भ्रमः कर्थ्य तत्र बहुव्रीहि रेवोक्तियुक्तादर्शितत्वात् न च रुचिरामित्यत्र रुचिरमात्रामित्यर्थे लादैकेत्यनेन पौनरुक्त्यम् लादैकजनकत्वरुचिरमात्रत्वयोः सुखमात्रजनकत्वरूपत्वादिति वाच्यम् पूर्वत्रालङ्काराधीन लादस्य इह तु रसाधीन हादस्य विवक्षितत्वेन भेदात् निर्माणमिति आक्षिप्तनिर्मिति पदार्थ एव व्याख्यातः कृतभिहित भावत्वेन निर्मित मितेव तस्याप्यर्थः इत्थं ब्रह्म निर्मिति विशेषणान्येव दर्शयित्वा नियति कृते त्यादिभिः कवि निर्मिति विशेषणानि श्लोक्तानि श्लोकोक्तानि तद्वैलक्षण्य बोधकानि त्याह एतद् विलक्षणात्विति वाचा कंठतात्वा द्यभिधातेन निर्मितिः वांग निर्मितिः कंठतालव्यद् विधात जन्य शब्देनार्थस्य प्युपनिबन्धार्थस्यापि वांग निर्मितत्वेनार्थस्य वैलक्षणस्यापि वांग निर्मिति वैलक्षण्यात् अत एवेति विलक्षण क्षण कार्यकारित्वादेवित्यर्थ स्तुति रूपम् अलंकस्याप्य मानस नमस्कार व्यंजकत्व मपित्याह जयत्यर्थेनेति सच नमस्कार सादृश स्तुति कत्ये रेवित्याह ताम प्रत्यस्मिति लभ्यते स्तुति श्रोत्रिभिः विचारणीय काव्यस्य प्रयोजन सत्व एव तद् विचार कालंकार शास्त्रे जनः प्रवर्तते अतः काव्यस्य प्रयोजन दर्शिकां कारिकाम् उत्थापयति इहाभिधेयमिति इह अलंकार शास्त्रे यद् अभिधेयं ध्वनिगुणीभूत व्यंग्य चित्रात्मकं त्रिविधं काव्यं तत् सप्रयोजनम् इति कारिका कृदु आहित्यर्थः सप्रयोजन माहेति पाठे काव्यमुद्देश्यत्वेन प्रयोजनञ्च विधेयत्वेन सहैवाहित्यर्थः इहा विधेयं सप्रयोजनमित्याह काव्यं यशसे अर्थकृते व्यवहारविदेशिवेतर्क्षतये सद्यः परनिवृत्तये कान्ता सम्मिततयोपदेशयुजे कालिदासादीनामीव यशः श्रीहर्षादिर् धावकादीनामीव धनम् राजादिगतोचिताचार परिज्ञानम् आदित्यादेर्मयूरादीनामीव मिवा अनर्थनिवारणम् सकलप्रयोजन मौलिभूतम् समनन्तरमेव रसास्वादन समुद्भूतम् विगलित वेद्यान्तरमानन्दम् प्रभुसम्मित शब्दप्रधान वेदादिशास्त्रेभ्यः सुहित सम्मितार्थ तात पर्यवत पुराणादिति हास्येभ्यश्च शब्दार्थयोर्गुणभावेन रसाङ्गभूत व्यापार प्रवणतया विलक्षणम् यत काव्यम् लोकोत्तरवर्णानिपुणक विकर्म तत् कान्तेव सरसता पादेन नाभिमुखीकृत्य रामादिवद् वतितव्यम् न रावणादि वदित्युपदेशम् च यथा योग्यम् कवेः सहृदयस्य च करोतीति सर्वथा तत्र यतनीयम् अर्थकृते इति अर्थो धनं तस्य कृतकरणमुपार्जनं तस्मै इत्यर्थः एवं विदुवेदनं ज्ञानं युगयोजनं प्राप्तिस्तस्यैव इत्यर्थः सर्वत्र सम्पदादित्वादभावे क्विप यश आदिषु चतुर्थ्यर्थं करोतिना विवृण्वन्नाः कालिदासादिनामिति अत्र कविना मित्युपमेयं बोध्यम् एवमुत्तरत्रापि यशः करोतीत्यप्रेणान्वयः काव्यं कर्त्री श्रीहर्षो राजा धावकेन कविना रत्नावली नाम नाटिकां तन्नाम्ना कृत्वा ततो धनम् लब्धम् व्यवहारं व्याचष्टे राजादिति आदिना अमात्यादिगत राजाचार परिग्रह काव्येन तदुभयस्यैव वर्णनात् ततस्त जगज्ञानम् शिवेतरस्यानर्थहेतुत्वेन ततक्षमितिमाह आदित्यादेरिति आदित्यस्तु तिरुपात् काव्यानामयूरभट्टस्य कुष्ठित्वनिवृत्तेः सद्य परित्यादिकम् व्याचष्टे सकलेति मौलिभूतम् प्रधान भूतम् इयम् परम्पदव्याख्या समनन्तरम् काव्यार्थबोधानन्तरम् इयम् सद्यः पदव्याख्या निर्वृत्तिपदम् रसरूपानन्दपरतया व्याचष्टे रसाखादेति रसरूपम् यदा स्वादनम तद्रूपम यत समुद्भूतम संभूतम वा पाठ भेदात उभय यथाप्युत पन्नमित्यर्थ रसस्य स्वप्रकाशानंद रूपतया उत्पद्यमान स्वस्य वक्ष्यमाणत्वात् स च न कार्य इत्यनेन तु कार्याज्ञानंतर वैलक्षण्यमेव साधयिष्यते न तु कार्यात्वाभाव इति तत्रैव व्याख्यास्यते तत्काले विषयांतर्बोधो नासित्याह विगलितेति ज्ञान विषय भूतेत्यर्थ विलक्षणम काव्यमेवैतत् करोतीत्यतः काव्यपदम विलक्षण काव्य परतया व्याख्यातुमाह प्रभु सम्मितेति प्रभु रत्न प्रभुरादेश तत् सम्मितं तत्तुल्यं यत शब्द प्रधानं वेदादि शास्त्रम आदि पदात वैदिक मंत्रश्च ततो विलक्षणमित्यर्थः रणसिंह इति कस्य चिन्नाम्नि प्रभुणादिष्टे यथा संग्राम सिंह इति न व्यवहृते प्रभोरादेशस्य शब्द प्रधानत्वात् तथा वेदोक्त शब्दस्यापि परिवृत्त्य क्षमत्वात् शब्द प्रधानत्वं सुहृद इति अत्रापि सुहृत् सुहृदुपदेशः तत्तुल्यम् यदर्थात् पर्ययुक्तं पुरात्यादि रूप रूपमितिहास शास्त्रम् आदिपदा दुपपुराण परिग्रह ततोपि विलक्षणमित्यर्थ सुहृत्पदे सुहृदपददेश पुराणयोर्द्वयोरपि अर्थस्यैव ग्राहत्वं न तु शब्द परिवृत्त्यक्षमत्वमतो अर्थतात्पर्यवत्त्वं तेभ्यो वैलक्षणे हेतुमाह शब्दार्थयोरिति अर्थोत्र वाच्यो लक्ष्यस्य तयोर्गुणभावे हेतुमाह रसांगेति रसांगभूतः रसबोधकः व्यापारो व्यंजनात्मकः यस्मै व्यंग्याय तत् प्रवणतया व्यंग्यप्रधान तयेत्यर्थः व्यंग्यार्थस्यै वास्वाद्यत्वेन तत् प्रधानता यद्यपि रसस्य साक्षात्कार एव वक्ष्यते तथापि प्रथमं व्यंजना तत् एव साक्षात्कार इति सिद्धान्तैश्य माणत्वाद्वयंजनाया रसांगत्वं भट्टलोल्लट्टमते तु रसस्य व्यंजन वैति तन्मते स्पष्टमिदं तादृशं काव्यं न च सामान्य विसाध्यमित्यत आह लोकोत्तरेति अन्य लोक विलक्षण वर्णनायां निपुणस्य कवेह कर्मित्यर्थः कांता सम्मित तयेति व्याचष्टे तत्कान्ते वेति तत्काव्यं कर्ति सरस्ता श्रृंगारोन्मुखता काव्येनापि प्रथमं श्रृंगारादि रसबोधनं ततो वर्णितार्थे प्रवृत्ति निवृत्ति उपदिशेति उपदेशस्याकारमाह रामादिति रामस्य पित्राज्ञादि पालन कृत्य इव प्रवृत्त्युपदेशः रावणस्य परदार हरणादि कृत्य इव निवृत्त्युपदेशः उपदेशंश्चेति चकारः पूर्व्योक्त यश आदि कर्म समुच्चये यथा योगमिति यथा संभवमित्यर्थः तेन यशो अर्थो कविरेव व्यवहारोपदेश परनिर्वृत्तयः सहृदयस्यैव शेषमुभयो सर्वथा तत्रेति तत्र काव्ये काव्यार्थबोधे च तत्फल फलार्थ कविना सहृदयेन च सर्वथा यतनीयमित्यर्थः एवमस्य प्रयोजन मुक्त्वा कारणमाह शक्तिर्निपुणता लोकशास्त्र काव्याद्यवेक्षणात् काव्यज्ञ शिक्षयाभ्यास इति हेतुस्तदुद्भवे शक्ति कवित्व बीज रूपः संस्कार विशेषः याम विना काव्यम् न प्रसरेत् प्रसृतम् वा उपहसनीयम् स्यात् लोकस्य स्थावर जंगमात्मक लोकवृत्तस्य शास्त्राणाम् छन्दो व्याकरण विधान कोश कला चतुर्वर्ग गजतुरग खड्गादि लक्षण ग्रंथानाम् काव्यानाम् च महा कवि संबंधिनाम् आदि ग्रहणादि इतिहासादिनाम् च विमर्शनात् व्युत्पत्ति काव्यम् कर्तुम् विचारयितुम् च ये जानन्ति तदुपदेशेन कर्णे योजने च पौनः पुण्येन प्रवृत्तिरिति त्रयः समुदिता न तु व्यस्तास्तस्य काव्यस्योद्भवे निर्माणे समुल्लासे च हेतुर्न तु हेतवः। अस्येति काव्यस्य काव्यार्थबोधस्य च कारणमाहित्यर्थ एतेन काव्य तदर्थ बोधयो कारणकथनमुपकान्तमिति बोध्यम् तद्य कारणमाह शक्ति इत्यादि लोकाद्यवेक्षणा निपुणतेत्यन्वयः काव्यज्ञपदं काव्यकर्तित् विवेचको भयपरतया स्वयमेव व्याख्यास्यते एवमुद्भव पदम् प्युतपक्षिण प्युभयपरतया तत्र शक्तिद्वयं तदुभय कारणद्वयं व्याचष्टे शक्तिः कवित्वबीजेति जनिका बोधिका च शक्तिरित्यर्थ एवञ्च कवित्वबीजेत्यत्रापि कवित्वतदर्थबोधबीजेत्यर्थ उभयोर्भेदेऽपि संस्कारत्वेनैकत्वादेकवचनम् संस्कारश्चात्र अतीन्द्रियात्मगुणरूप तया पुण्यविशेष एव तथा च तदुभयजनकौ पुण्यविशेषावित्यर्थ चक्रवर्ती तु भावनाख्य संस्कारमेवाह तन्न स्मृतिं विना तस्यान्यजात्राजनकत्वात् पदार्थस्मारकभावनायांश्च सर्वसाधारणत्वेना व्यावर्तकत्वात् काव्याकर्तिकाव्याबोधव्यावर्तनाय पुण्यविशेषस्यावश्यकत्वाच्च तादृशशक्तिद्वयस्य तादृशं फलद्वयं प्रतिकारणता ग्राहकं तद्वय व्यक्तिरेकेण तत्फलद्वय व्यक्तिरेके माहयां विनेति प्रसृतं वेति च तत्र काव्यस्य जनकता ग्राहकं यां विनेति यां शक्तिं विनेत्यर्थः तस्या बोधकताया ग्राहकं प्रसृतं वेति अत्रापि यां विनेत्यस्यान्वयः वाकारः अप्यर्थे तया च जनिकया शक्त्या प्रसृतं जातम् अपि काव्यं यां बोधिकां शक्तिं विना उपहसनीयं स्यादित्यर्थः सत्काव्योपहासादेव च तदर्थबोधव्यक्तिरेकलाभ एतेन जनकः शक्तिव्यक्तिरेकेण प्रसृत्वा सम्भवि नाशङ्कनीय जनकशक्तिव्यक्तिरेकेण प्रसृतत्व स्यानुक्तत्वात् मैथिलासु अनुपहसनीय काव्यकारणकथनमेवात्रोपकान्तमित्यभिप्रायेण अनुपहसनीय कवित्वबीजरूपः संस्कारविशेष इत्यर्थः। तथा च अनुपहसनीयं काव्यं यां विना न प्रसरेत् प्रसृतञ्च यत् काव्यं तदुपहसनीयमेव न तनुपहसनीयमित्यर्थ इत्याहु तन्न काव्यपदस्यान अनुपह काव्यपदस्यात्र अनुपहसनीय काव्यपरत्वे प्रसृतं वेति वकारेण तत्रैव प्रसृतत्वान्वयबोधतात्पर्यस्य ग्राहणीयत्वनियमात् न तूपहसनीय काव्यरूपधर्म्यन्तरे उपहसनीय काव्यरूपधर्म्यन्तरस्य शब्दात् प्रतीते बोधकशक्त्यकथने इति त्रयस्तस्य काव्यस्य उद्भवे निर्माणे समुल्लासे च हेतुरिति वृत्त्यनुपपत्तेश्च। अन्ये तु तर्कपरमे वेदं तथा वयां विना यदि प्रसृतं स्यात् तदा अकाव्यत्वेनोपहसनीयं स्यादित्यर्थ इत्याहु तदपि न यथा श्रुतस्यास्य तर्कस्य घटादावेव व्यभिचारेण मूलशैलीत्यात् यां विना प्रसृतं काव्यं स्यादित्यापादकदलार्थकरणे तु काव्यपदस्या सत्काव्यसाधारणपरत्वे इष्टापत्तिः अनुपहसनीय काव्यपरत्वे तु तस्य शक्तिं विना प्रसृत्वाप्रसिद्धया आपादकाप्रसिद्धि अनुपहसनीयत्वोपहसनीयत्वयो विरोधो मूलशैलीस्य अथानुपहसनीयं काव्यं पक्षः तथा च अनुपहसनीयं काव्यं यदि शक्तिं विना प्रसृतं काव्यं स्यात् तदा उपहसनीयं स्याद् सत् काव्यवदिति तर्क परिष्कार इति चेत् तथापि वृत्तिविरोधो एवात्र प्रागुक्तः लोकशास्त्रे इत्यादिकं व्याचष्टे लोकस्येति लोकवृत्तस्यैव वर्णनीयत्वेन लोकमात्रावेक्षणं तत्रानुपयुक्तमतो लोकपदं तद्वृत्तपरतया व्याचष्टे लोकवृत्तस्येति अवेक्षणादित्यस्य विवरणं विमर्शनादिति अत्रैव च सकल षष्ठ्यन्तपदार्थान्वयः स्थावरवृत्तस्य लतालास्य कुसुम विकसनादि अभिधानकोश नाम लिंगानुशासनम् एषां ज्ञानोपयोगः स्पष्ट एव कला हेलालीलादयः स्त्रीभावा चतुर्वर्गः धर्मार्थ काम मोक्षाः कलादि खड्गान्तेषु सर्वत्र लक्षण ग्रन्थान्वयः एषां सर्वेषामेव काव्ये वर्णनीयत्वात् तज्ज्ञानापेक्षा इतिहासादिनामित्यत्र आदिपदानाष्टयाङ्गपरिग्रह व्युत्पत्तिः संस्कारः स चावेक्षणीयार्थविषयः काव्यपदं काव्यकर्तिद् विवेचक रूपकाव्यार्थबोध्य भयपरतया व्याचष्टे काव्यं कर्तुमिति काव्यकर्तूपदेशात् काव्यकरणे तद्विवेचकोपदेशाच्च अन्वयबोधरूपे योजने प्रवृत्तिबोध्या एतावताप्युभयकारणकथनमुपकान्तमिति बोध्यं प्रवृत्तिरत्र प्रवृत्तिविषय ज्ञानजन्यः संस्कारः प्रवृत्तिः क्षणिकत्वात् इति हेतुरित्यत्र हेतुत्रयार्थक हेतुपदोत्तर कैवचनलब्ध भावार्थमाः इति त्रयः समुदिता इति समुदायाश्चै शैकवचनात् समुदायलाभ इति भावः तदुद्भवपदं तन्निर्माणत् तदर्थबोधो भयपरतया व्याचष्टे तस्य काव्यस्येति उल्लासः तदर्थज्ञानम् एवञ्च त्रयान्तर्गतायाः शक्तिरप्युभयकारणत्वमुक्तम् तथा च शक्तिपदं न जनकशक्तिमात्रपरं हेतुफलोपधायकः न तु हेतव इति न तु प्रत्येकं फलोपधायका इत्यर्थः अत्र च न तु व्यस्ता इत्यस्य हेतव इत्यत्रान्वये न तु हेतव इत्यत्र हेतुपदम् अधिकं स्यादतो न तु व्यस्ता इत्यत्र कारिकास्थेन इति शब्देन परामृष्टा इत्यभ्याहृतान्वयेन वाक्यभेदः कार्यः तथा च समुदिता एव इति शब्देन परामृष्टा न तु व्यस्ताः प्रत्येकं परामृष्टा इत्यर्थः एतादृशपरामर्शफलमाः हेतुर्न तु हेतव इति तथा च दण्डचक्रादिन्वन् मिलितानामेव फलोपधायकत्वमुक्तम् स्वरूपयोग्यता तु प्रत्येकमस्तेव मिलितानां तथा त्वन्तु मन्त्राद्यनधीतकाव्यम् प्रत्येव बोध्यं मन्त्राधीनकाव्ये तु मन्त्राधीनः शक्तिविशेष एव हेतु शिशुकृतकाव्ये तु जन्मान्तरीणं तत्त्रयमस्तेव एवमस्य कारणमुक्त्वा स्वरूपमाह तद्दोषौ शब्दार्थौ सगुणावनलङ्कृति पुनः क्वापि दोषगुणालङ्कारा वक्ष्यन्ते क्वापीत्यन्ते नैतदाहयत सर्वत्र सालङ्कारौ क्वचित्तु स्फुटालङ्कारविरहेऽपि न काव्यत्वहानिः यथा यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपास्ते चोन्मिलित मालती सुरभयः प्रौढा कदम्बानिला एवमिति अस्य काव्यस्य स्वरूपं लक्षणम् तद्दोषाविति शब्दार्थो अर्थादुपस्थापकोपस्थाप्य भावेन परस्पर विशिष्टौ तत्काव्यमित्यर्थः न तु निरर्थक शब्दानुपस्थापितार्थो एवञ्च काव्यन्तो विशिष्टवृत्ति न प्रत्येकवृत्ति यत्तु काव्यं शृणोमिति प्रत्ययात् काव्यत्वं शब्दमात्रवृत्ति तु केचिदाहु तत् तत्र अर्थस्यापि शब्दद्वारा तथा प्रतीति विषयत्वात् कथमन्यथा आत्मा वा अरे श्रोतव्य इत्यत्रात्मनः श्रोतव्यता तथा व काव्यत्वं विशिष्टवृत्तिरूपाधि द्रव्यत्वादिना जाति संकरास्तु न जाति न वा काव्यत्वं व्यासज्यवृत्ति अर्थाज्ञानेऽपि शब्दावली मात्रे काव्यत्वानुभव भवानुपपत्ते यावदाश्रया विषयज्ञानेन व्यासज्यवृत्ति धर्माविषयीकरणात् विशिष्टस्य काव्यत्वे च यत्र शाब्दिव्यञ्जना शब्दालङ्कारो वा तत्रार्थविशिष्टः शब्दः काव्यम् यत्र त्वार्थी व्यञ्जना अर्थालङ्कारो वा तत्र शब्दविशिष्टो अर्थकाव्यमिति विनिगमना न त्वेकत्रैव पद्ये द्विविधं काव्यत्वं वैयर्थ्यात् दोषविशेषवतः काव्यत्वानङ्गीकारादाह अदोषाविति च्युतसंस्कृत्य भवन्मतयोग क्लिष्टत्वादयो ये शब्दाबोधविघटकादोषाः ये च प्रतिकूलवर्णत्वादयो रसबोधविघटकादोषाः तत्सामान्या भाववन्ता वित्यर्थः एषु सततसु रसबोधानुदयात् दोषान्तरन्तु काव्यपकर्षकमेव न तु काव्यत्वविघातकम् अतः तथा भूतां दृष्टां नृपसदसि पाञ्चालतनयामित्यादौ न्यूनपददोषो दोषोदाहरणतया वक्ष्यमाणोऽपि काकुत्सह कृतवाक्यार्थव्यङ्ग्यध्वन्युदाहरणत्वं कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकमित्यादौ पुनः रुक्तदोषोदाहरणतया वक्ष्यमाणोऽपि रौद्ररसध्वन्युदाहरणञ्च वक्ष्यमाणं नानुपपन्नाम् केचित्तु एकत्रैव काव्ये दोषवद् वयवाव छेदे नाकात्व ना काव्यत्वम् अन्यावच्छेदेन तु काव्यत्वमतो दोष सामान्यभाववन्ता वित्तेवा वार्थमाहु तच्च एकत्रो भयव्यवहारभावा दनुपादेयमेव सर्वथा निरसस्य गोरपत्यं वली वर्दो घासमत्तिमुखेन सह इत्यादेह अद्रावत्र प्रज्वलत्यग्निरुच्ये प्राज्यः प्रोद्यन्नु लसत्येष धूमः इत्यादेश काव्यत्वानङ्गीकारादाः सगुणाविति गुणा हि माधुर्यौजः प्रसादाख्या रसधर्मा एव वक्ष्यन्ते काव्यस्य च गुणाश्रय रसत्व तेनैव सगुणत्वम् अत एव वक्ष्यति गुणवृत्त्या पुनस्तेषां वृत्तिशब्दार्थयोर्मता इति अष्टम उल्लासे तेषां गुणानां गुणवृत्त्या परम्परा वृत्त्या इति तदर्थात् भावसदाभास भावशान्ति भावोदय भाव सबलत्वानि यानि व्यङ्ग्यानि असंलक्ष्य क्रमतया रसतुल्यकक्षाणि वक्ष्यन्ते तेष्वपि गुणाङ्गीकारात् न भावादिकाव्येष्वव्याप्ति अत एव नियति कृतनीयम् रहितामि त्यादिकं भारती विषय भाव काव्यमपि काव्यमेव देवादि विषय विषयरतिभावे शृङ्गारि या सुयादिव्यभिचारी भावे च माधुर्यस्य क्रोधमूलक विषादादि भावे च ओजो गुणस्य सत्वात् व्यक्ति भविष्यति चेदम् ओजो गुण व्यञ्जक वर्णोदाहरणतया वक्ष्यमाणे मूर्धा मुदवृत्त कृते त्यादौ रावण विषाद भाव धनावष्ट मुल्लासे वैचित्र्य मलंकार इत्यलंकार सामान्य लक्षणं वैचित्र्यंच भंगि विशेष प्रतीति साक्षिकः तद्भावे ही कांते कामयमानं माम न त्वं कामयसे कथम इत्यस्या काव्यत्वेमेव श्रृंगार रस वत्यापि तत्र अतिव्याप्ति वारणाय सालंकार विति तद्विशेषणं पर्यापयितुमाहम् अनलंकृति पुनरिति अत्र ईषदर्थे नय अप्यर्थे च पुनः शब्दः तथा च क्वाप्युदाहरण विशेषे ईषदलंकृति अपित्यर्थः तेन प्रौढालंकृति तु सूतरामित्या याति तथा च सालंकृति इति पर्यवसितम् अलंकृति इति पदस्य अप्रौढालंकृति परत्वभ्रम निरासार्थमित्थमुक्तिः नामतो निर्दिष्टानामलंकाराणां भावेऽप्युक्तिः भंगिसत्त्वे सालंकारत्वमेव वैचित्र्यमात्रस्य सैवालंकारत्वादित्यतो वक्ष्यमाणेषु निःशेष च्युतचन्दनमित्यादिषु नाव्याप्ति क्वापीत्य तेनेति अनलंकृति इत्यादिनित्यर्थः क्वापित्य तस्य तस्यैव यत सर्वत्रेत्यादर्थकत्वात् क्वापित्यनेति तु प्रामादिकं पाठ तस्य तादृशार्थबोधकत्वाभावात् सर्वत्र सालंकारत्वलाभस्य ईषदर्थकनया अप्यर्थक पुनः शब्देन चेत्यक्तुमेव क्वचित्त्वतीति अलंकारस्फुटत्व स्याविवक्षितत्वादिति भावः सा चैवास्मि तथापि तत्र सूरत व्यापार लीलाविधौ रेवारोधसिवेतसीतरूतले चेतः समुत्कण्ठते अत्र स्फुटो न कश्चिदलंकारः रसस्य हि प्राधान्या नालंकारता यः कौमार इति रेवानदीतीरे वेतसीना मतरूतले कृतसंकेताया नायिकाया गृहे स्वयं परामर्शो अयम् तादृशस्थले सूरतार्थे ममोत्कण्ठा निर्वृत्तिका सामग्री मम गृह एवास्ति तथापि कृतसंकेते तत्र रेवाया रोधसि तीरे वेतसीनाम तरुतले सूरत व्यापार लीलाविधाननिमित्तं चेतः समुत्कण्ठते विलक्षणरति शमनायक प्राप्त्यर्थे विलक्षण रात्र्यादि प्राप्त्यर्थञ्च तत्रोत्कण्ठा युज्यते तत् सर्वञ्च मम गृह एवास्तित्याह यः कौमार इति कौमारं कुमारित्वम् अनूढात्वं विवाहेन यस्तद्धरः पतिरित्यर्थः स एव वरः श्रेष्ठः विलक्षणरतिक्षम एवेत्यर्थः हिरवधारणे चक्रवर्ती तु कौमार मभिन यौवनम् उपभोगेन यस्तद्धरः पतिरित्यर्थ इत्याह तत्तु न रुचिरं कुलटोक्तौ तावत् पत्यालाभात् अन्यस्याप्युपभोग कृत्वसंभवात् एवं विलक्षणात्यादयोऽप्यत्रैव सन्तीत्याह ता एवेति कदम्बानिलाः कदम्बवनानिलाः वनानिलानां प्रौढत्वेऽपि वनबहिर्भावे मन्त्राद्योपलम्भादाः प्रौढा इति न तु कदम्बपुष्पानिला इत्यर्थ चैत्रे कदम्बपुष्पाभावात् प्रौढा इत्यस्यापनुपपत्तेश्च अत एव कदम्बपदमत्र धूलिकदम्बपरं तस्यैव चैत्रे सम्भववादिति चक्रवर्ती व्याख्यानम् युक्तं तद् नीलानां प्रौढानां मप्यनुद्दीपकत्वात् सौरभलाभस्तु मालती सुरभय इत्यनेनैव ममावस्थावैलक्षण्यमपि तत्र नास्तीत्याह सा चैवेति तदवस्थैवास्मीत्यर्थ एवञ्च वित्तस्वभाववैलक्षण्यविशेषेण विस्मयेनो दीप्तः श्रृंगाराभासोत्र व्यंग्यः अत्रेति अस्फुटेतु विभावना विशेषोक्ति अलंकारौ स्त एवेति बोध्यम् तथा हि उत्कंठा कारणानां रति समर्थनायकाद्य भावानां भावेपि उत्कंठा रूप फल कथनाद विभावना क्रियायाः प्रति शेधेपि फल व्यक्तिर्भावनेति तल्लक्षणात् क्रियापदस्य च तत्र कारणमात्र परत्वात् तथा अनुत्कंठा कारणानां रति समर्थनायकादीनां सत्वेपि अनुत्कंठा रूप फलस्य उत्कंठा रूपा भाव कथनाद विशेषोक्ति विशेषोक्तिर खंडेषु कारणेषु फलावचः इति तल्लक्षणात् तत्र च फलावचः इत्यस्य फलाभाव कथन मित्यर्थात् अनयोर स्फुट त्वच्च कारणाभाव फलाभावयोर्वाचकेन नया निर्देशाद् विलंब प्रतीतीकत्वात् यस्य हरोवर इत्यनुप्रासः सोऽपि न स्फुट रसोपकारकत्वे सति शीघ्र प्रतीयमानस्यैव स्फुटतया भिप्रेतत्वात् सविसर्गतया गुरुणा रेफेण घटितस्यास्य अनुप्रासस्य तु शृङ्गारा नुपकारकत्वात् रणौ लघु इति शृङ्गारीय माधुर्य व्यञ्जकतया वक्ष्यमाणत्वात् नन्वत्र उपनायक विषय शृङ्गारानास एवासि व्यंग्यस्य चोर्ज स्वीनामालंकारत्वेन गुणीभूत व्यंग्ये वक्ष्यमाणत्वात् स एवात्र स्फुटोलंकारो स्थित्यर्थ आहरसस्य हि रसाभासस्य हित्यर्थ उपनायक विषयत्वेन रसस्याभासत्वादेव प्राधान्याद्रसान्तरानंगत्वात् अपरस्यांगत्व एव रसस्यालंकारतया वक्ष्यमाणत्वा दिति भावः तदभेदान क्रमेणाह इदमुत्तमतिशायिनी व्यंग्ये वाच्याद्य निर्बुधय कथितः इदमिति काव्यम् बुधैर्वैयाकरणैः प्रधानभूतस्फोटरूप व्यंग्य व्यञ्जकस्य शब्दस्य ध्वनिरिति व्यवहारः कृतः ततस्तन्मतानुसारिभिरन्यैरपि न्यग्भावितवाच्यव्यङ्ग्यव्यञ्जनक्षमस्य शब्दार्थयुगलस्य यथा तद्भेदान काव्यप्रभेदान क्रमेण कारिकार्धत्रयेण इदमिति वाच्यादतिशायिनी वाच्यापेक्षयाधिकर्च मतकारणी व्यंगे सति इदं काव्यं ध्वनिः तदेव उत्तमं काव्यमित्यर्थ अत्र कारिकास्थस्य बुधपदस्य अलंकारिक बुधपरत्वेपि ध्वनिव्यवहार संवाद प्रदर्शनार्थं तदा क्षिप्त बुधपदार्थानां वैयाकरण रूपबुधानां मतं दर्शयति बुधैर्वैयाकरणैरिति आशु विनाशिनां क्रमिकाणां मेलकाभावादनेकवर्णघटित कलसादि पदस्य ज्ञानासंभवात् पूर्व्यपूर्ववर्णानुभवजन्यसंस्कारसचिवस्यानुभूय मानचरं वर्णस्य पदव्यञ्जकत्वं तैरुच्यते पदस्य स्फोटपरिभाषा चरणं वर्णस्य ध्वनि परिभाषा च तैः कृता अर्थबोधकत्वा दुभय वर्णापेक्षया पदं प्रधानम् तच्च स्फोटाख्य व्यंग्यमेव तद्व्यञ्जकस्य शब्दस्येति चरम वर्णरूपशब्दस्येत्यर्थः तत् इति शब्दांशे ध्वनिव्यवहार एव मतानुसरणं न तु काव्य इत्यवधेयम् अन्यैरिति कारिकास्थ बुधपद पदव्याख्या न्यगभावितेति न्यगभावितं स्वातिशयेन निकृष्टीकृतं वाच्यम् एन तादृश व्यंग्य व्यञ्जनक्षमामित्यर्थ व्यंग्यस्य वाच्यादतिशायित्वे तेन वाच्यस्य न्यगभावितत्वात् शब्दार्थयुगलस्येति काव्यस्येत्यर्थ तदयुगलस्य काव्यत्वेनोक्तत्वात् तस्य ध्वनिरिति व्यवहार कृत इत्यन्वयः निःशेष चित्त चंदनम स्तन तटम निर्मृष्ट रागो धरो नेत्रे दूरमंजन मनंजने पुलकिता तन्वी तथेयम तनुः मिथ्यावादिनी दूति बांधव जनस्याज्ञात पीडागमा वापिं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् अत्र तदन्तिकमेव रन्तुं गतासिति प्राधान्येन व्यञ्जते। निःशेषेति उपनायकमानेतुं प्रेषितां तदुपभोग लुप्त चन्दनादीन् वापि स्नानव्याजेन गोपयन्तीं दूतीं प्रति नायिकायाः सोल्लुण्ठ लुण्ठनोक्तिरियं मञ्चेष्टयासौ नायात इत्येवं मिथ्यावादिनी हे दूती बांधव जनस्य मम अज्ञात काम पीडागमात्वं इतः मत सकाशात स्नातुं वापिं गतासि न तु तस्याधमस्य अन्तिकं यतस्ते स्तनतटं निःशेष चित्चन्दनम् अधरश्च निर्मृष्ट रागः नेत्रे च दूरम् अतिशयम् अञ्जने तथा इयं तन्वी क्षीणा तनुः पुलकिता तथा शब्दः समुच्चये स्नानकार्ये मेवैतत् सर्वमिति सोल्लुण्ठनोक्तिः अत्र व्यङ्ग्यमाह अत्रेति ईदृशं व्यङ्ग्यवाच्यार्थपेक्षया प्राधान्येन विशिष्ट एतत् काव्यस्वरूपेण शब्दार्थयुगलेन व्यञ्जत इत्यर्थ वाच्यार्थापेक्षया प्राधान्यञ्च विप्रलम्भातिशय व्यञ्जनात् विप्रलम्भो हि दुःखसंभिन्नारति दुःखाधिक्याञ्च तदतिशयः। तदुक्तं संभोग सुखसमिन्ना विप्रलम्भस्तु दुःखयुग रतिस्तयोः प्रकर्ष स्यादाधिक्यात् सुखदुःखयोः इति क्वचित्तु प्राधान्येनाधमपदेनेति पाठस्तिष्ठति तच्च न रुचिरं वाच्यापेक्षया व्यङ्ग्यप्राधान्ये उदाहर्तव्ये व्यञ्जकप्राधान्यकथनस्यानुपयोगात् किन्तु पञ्चमोल्लासे अधमपदसंहायानामेषां व्यञ्जकत्वमिति ग्रन्थकृता वक्ष्यते तदर्श नादत्र तथा पाठं केचित् रचयन्ति तत्पदस्य प्राधान्यञ्च तदन्तिके दुत्या आगमने वाच्यार्थे तस्या पराधाभावात् तस्याधमत्वोक्तन्यनुपपत्या दूतिरमणरूपव्यङ्ग्यार्थे नैबाधमत्वोपपत्तेः तत्र अधमपद प्राधान्यस्य ग्रन्थकृतसम्मतत्वेऽपि प्रकृते अनुपयुक्तस्य कथनानौचित्यात् वस्तुस्तस्तु अधमपदप्राधान्यमपि नास्ति दूतिप्रेषणसापेक्षत्वादेव तस्याधमत्वो तयूपपत्तेः तया अधमपदस्ये वान्येषामपि पदानां दूतिर्मणव्यञ्जकत्वमस्त्येव तथा हि स्नाने स्तनबन्धन चन्दनाधररागयोः क्षालनमेव न तु च्युतनिर्मिज्जने तयोः संभोग घर्षणादेव सम्भवात् अतच्युतनिर्मिष्टपदे अपि तस्य व्यञ्जके प्रधाने एव तथा स्नाने समस्त स्तनस्यैव चन्दनलोपो न तु तटमात्रस्य अतः संभोग घृष्टत्वेन तटपदमपि तथैव एवमधरपदमपि उत्तानत्वेन चुम्बन घृष्टत्वव्यञ्जनया तथैव स्नाने तु न्युञ्जस्य ओष्ठस्यापि रागलोपः स्यात्तया इयम् एतदक्षणवर्तिनी तन्वी तनुः पुलकिता पूर्व सभयरतौ भावानुद्वेधेन पुलको नासीदिदानीनन्तु निराबाधरति निर्व्याहेन भावोद्वोधात् पुलक स्नाने तु वर्त्मश्रमेण पुलकलोपः स्यादत् इयमिति पदमपि तद्व्यञ्जकम् अतः कथम् धम पदस्य प्राधान्यम् अधमपदसहायानामिति ग्रन्थकिल्लिखितस्य तु अधमादिपद सहायानामित्यर्थः अत्र केचिदन्तिकं न गतासीति वाच्यार्थस्य रतिचिह्न दर्शनेन बाधात न गतासीत्यत्र विरोधलक्षणया गतासीति लक्ष्यं तथा च तदंश स्याव्यङ्ग्यत्वाद् गतासीत्यनन्तरं लक्ष्यमिति पूरणीयं व्यञ्जते इत्यस्य तु रन्तुमित्यत्रैवान्यद् रन्तुमिति व्यञ्जते इत्येवमेव ग्रन्थकृतिर्लिखनं व्याचक्षते तन्न न गतासीत्यस्य वाक्यत्वेन लक्षणाया एवाभावात् वाप्यं स्नातुं न गतासीत् तदन्तिकमेव गतासीत्येव मन्वे तदन्तिकगमनस्य शक्तैव बोधनसम्भावच्च किञ्च निःशेषेत्यादौ पञ्चमोल्लासे गमनविधेय व्यङ्ग्यत्वमेव ग्रन्थकृता वक्षते विधेयलक्षत्वव्याख्याने तद्विरोधः स्यात् न च बाधालक्षणां विना अनुपपत्तिरिति वाच्यं वाच्यार्थबोधानन्तरं बाधावतारे बाध्यमानेन तेन यथोक्तव्यञ्जने अनुपपत्त्यभावात् अत एवोक्तं क्वचिद्वाध्यतया ख्यातिः क्वचित् ख्यातस्य बाधनम् एकत्र लक्षणैव स्यादन्यत्र व्यञ्जनैव तु इति अतादृशी गुणीभूत व्यङ्ग्यं व्यङ्गी तु मध्यमम् अतादृशी वाच्यादनतिशायिनी यथा ग्रामतरुणं तरुण्या नव वञ्जुलमञ्जरी सनाथकरं पश्यन्त्या भवति मुहुर्नितरा मलिना मुखच्छाया अत्र वञ्जुललतागृहे दत्तसङ्केता नागतेति व्यङ्ग्यगुणीभूतं तदपेक्षया वाच्यस्यैव चमत्कारित्वात् अतादृशीति व्यङ्ग्ये वाच्यादनतिशायिनी सति काव्यं गुणीभूतव्यङ्ग्यं तच्च मध्यमित्यर्थः वाच्यादनतिशयः वाच्यतुल्यच् मतकारित्वे वाच्यनधुन च मतकारित्वे च भवति तत्र वाच्यन्यून च मतकारित्वे सुन्दराख्यं गुणीभूतव्यङ्ग्यसमुदाहरति ग्रामतरुणमिति नवया वञ्जुलस्य अशोकस्य मञ्जर्या सनाथकरं वसिष्ठपाणि ग्रामतरुणं मुहुः पश्यन्त्यास्तरुण्या मुखच्छाया नितरं मलिना भवतीत्यर्थः मुहुर्दर्शने अन्यशङ्का निरासार्थं ग्रामतरुणत्वोपादानम् ग्रामस्य परिचितत्वेन मुहुर्दर्शनेऽपि संख्यानुदयात् चक्रवर्ती तु ग्रामस्य मध्ये स एव तरुण इत्यनेक नारी प्रार्थ्यमानत्वसूचन मुखमालिन्योपपादकमित्याह तत्र तादृशनिर्धारणत्वेनाकालीनत्वप्राप्त्या लोकेषु तत्प्रदर्शनौचित्येन करे तत्करणात् छङ्कानुदयः अत्रेति गृहव्यापारलतागृहे गमनं व्यङ्ग्यं लतागृहचिह्नदर्शनान्मुखमालिन्येन वाच्येन सामाजिके प्रतीयत इत्यर्थ तच्च व्यङ्ग्य वाच्यमुखमालिन्यापेक्षया नून चमत्कारित्याह गुणीभूतमिति वाच्यन्तु मुखमालिन्यमधिक चमत्कारित्याह तदपेक्षयेति अयं भावः चमत्कारस्तावदत्र विप्रलम्भव्यञ्जनैव वाच्यस्य व्यङ्ग्यस्य च तत्र सङ्केतस्थलचिह्नस्तनायकदर्शनात् मुखमालिन्यमनन्यथा सिद्धं विप्रलम्भादेव भवतीति व्यङ्ग्यनिरपेक्षमेव वाच्यं विप्रलम्भव्यञ्जकम् व्यङ्ग्यमन्तु वाच्यमालिन्योपपादकमेव न तु वाच्यसहायं विना स्वतो विप्रलम्भव्यञ्जकं नायिकाया अकार्यत्यागेन गृहकर्म समापनान्तरमन्यदापि नायकप्राप्तया स्वहृदयाश्वासनेन वा विप्रलम्भानुदयात् अतो लतागृहे गता सङ्केतस्थलचिह्न स्तोपनायकदर्शनात् मलिनमुखित्येवं वाच्य सह कृतमेव व्यंग्यं विप्रलम्भ व्यंजकमिति वाच्य मुख निरीक्षकतया व्यंग्यं न्यून चमत्कारिति न च अकार्य हेतो रूपनायकस्य दर्शनात् क्रोधेनापि मुखमालिन्यं भवतीति वाच्यमपि कथं व्यंग्यं निरपेक्षं विप्रलम्भ व्यंजकमिति वाच्यं स्वयं कृतसंकेतायास्य स्तस्यास्तदर्शनेन क्रोधानुदयात् क्रोधे सति मुहुर्दर्शनाभावाच्च निःशेषेत्यादौ तु वाच्यविरुद्धं व्यंग्यं न वाच्यमुखनिरीक्षकमिति मन्तव्यम्। शब्दचित्रं वाच्यचित्रं व्यंग्यं त्ववरं स्मृतं चित्रमिति गुणालङ्कारयुक्तम् अव्यंग्यमिति स्फुटप्रतीयमानार्थरहितम् अवरधमम् यथा स्वच्छन्दोच्छलच्छदकच्छरकुहर छातेतराम्बुच्छटा मूर्छन्मोहमः शिरहर्षविहितस्नानानिकाह्नायवः विद्याद्युद्यदुदारं दर्दुरदरी दैर्ध्यादरिद्रद्रुम द्रोहोद्रेकमहोर्मिमेदुरमदा मन्दाकिनी मन्दताम् निर्गतं मानदमात्ममन्दिराद्भवत्युपश्रुत्य यदृच्छायापियम् ससम्भ्रमेदन्द्रदु तपाति तार्गला निमितलीक्षातिव भियामरावती। शब्दचित्रमिति वाच्यचित्रम् अर्थचित्रमित्यर्थः उभयसाधारणं चित्रत्वमाक्षिप्तमेवोत् किर्यति चित्रमितीति सर्वथा नीरसस्य काव्यत्वा नङ्गीकाराद परिस्फुट सवृत्तिगुणवक्त्या गुणयुक्तत्वं बोध्यं स्फुट प्रतीयमानेति प्रतीयमानः व्यंग्यः न च वाच्यसिद्ध्य सिद्ध्यङ्गं स्फुटमिति यदस्फुट व्यंग्यगुणीभूत व्यंग्यकाव्यं वक्ष्यते तदभेदा पत्तिरिति वाच्यं स्फुटालङ्कारत्वे चित्रम् अस्फुटालङ्कारत्वे तु गुणीभूत व्यंग्यमिति भेदात्। सर्वथा वैचित्राभावनिरलङ्कारं तु अकाव्यमेव सालङ्कारत्वघटित काव्यलक्षणाभावात् अधमिति पूर्व्यद्वयापेक्षया न्यूनमित्यर्थ न त्वसत् काव्यमित्यवधेयम् स्वच्छन्देति मन्दाकिनी गङ्गा आह्लाद झटिति वह युष्माकं मन्दतां पापेनाप कृष्टतां भिद्यात् नाशयतु इत्याशी विन्द्यादिति पाठे तु विधौ सप्तमी कीदृशी स्वच्छन्दं यथा स्यात् तथा उच्छलतः उद्गच्छतः अवच्छस्य निर्मलस्य कच्छकुहरे स्वसमीपवर्तिभ्य वर्तगुहायां छातेतरस्य दुर्बलभिन्नस्य हर्षेण विहितं स्नानाद्यालिदकं यस्यां तादृशी उच्छलदिति शलगतौ छातेति अमांसो दुर्बलश्छातः इति कोशः तथा उद्यत्प्रकाशमानम् उदारं दर्दुरदरीणां मण्डुकगर्तानां तथा अदरिद्राणां महतां द्रुमाणां द्रोहोद्रेकेण उत्खातोदयेन ये महोर्मय तैः मेदुरमदा निबीडप्रवाहचापल्या अत्र छकारदकारानुप्रासो वैचित्र्यं मन्दाकिनी विषयभावस्य सतोऽपि तदनुगुणौ जो गुण व्यञ्जकवर्णानुप्रासेन दीर्घसमासेन उदारदहर दरित्यादपुष्टार्थकविशेषेण च अपकर्षणा स्फुटत्वम् अर्थचित्रमाह विनिर्गत मिति यम यग्रीवनृपं मानदं शस्त्रोर्मानखण्डकं मित्रस्य मानदायकस्य आत्ममन्दिरादयच्छायादपि विनिर्गतमुपश्रुत्य परम्परया श्रुत्वा ससम्भ्रमेण सभयेन इन्द्रेण द्रुतं पातितार्गलापातितद्वारपिधानां सति अमरावती भिया निमिलिताक्षीव भवतीत्यन्वयः उपश्रत्येत्यत्र पातित क्रियायैक कर्तृकत्वं बोध्यम् अत्र समापक निराकांक्ष वाक्य बोध्यत्वेन प्रधानभूतस्य उत प्रेक्षा रूपार्थालंकारस्य चमत्कारेण सतोपि राज विषयस्य भावस्य तिरोधानात् स्फुटत्वं न च पातितार्गला भवतीत्यन्वये राज विषय भाव एव निराकांक्ष वाक्य व्यंग्य प्रधानतया स्फुट इति वाच्यं तदा निमिलिताक्षीव इत्यत्रापि भवतीत्यस्यानुसंगापत्तेः अतो अनुषंगेण निराकांक्ष वाक्य बोध्यतया च चमत्कारण्याभाव प्रतीतेर्विलम्बनमेव भावास्फुटत्वबीजमित्यभिप्रायेण प्राणेदमुदाहृतम् वस्तुस्तस्तु उत्प्रेक्ष्यापि परपूरीरूपपरस्त्रीभीति जननाद् राजविषयभावप्रकर्षणमेवैतदिति आपातत एव मुदाहरणमुक्तम् षष्ठोल्लासे ते दृष्टिमात्रपतिता इत्यादिकं यदर्थचित्रोदाहरणं वक्षते तदेवोदाहरणं बोध्यम् इति श्रीमाहेश्वरा न्यायालंकार भट्टाचार्यकृत काव्य प्रकाशार्थे काव्य प्रयोजनादि निर्णयस्य प्रथमः प्रतिबिम्बः।